अथ सप्तदशोध्याय श्रद्धात्रय विभाग योग। अर्जुन उवाच ये शास्त्र विधि मुत्सृज जजन्ति श्रद्धयान्विता तेषां निष्ठा तु का कृष्ण सप्तमाहो रजतम। श्री भगवान उवाच त्रिविधा भवति श्रद्धा देहिनांसा स्वभावजा सात्विकी राजसी चैव तामसी चेति तां श्रृणु। सत्तानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयोयोग पुरुषा जो जत्श्रद्ध सैव स जजन्ते सात्विका देवान् यक्षरक्षांसि राजसा प्रेतान् भूतगणांश्चन्ये जजन्ते तमसा जना। अशास्त्रविहितं घोरं तप्यन्ते ये तपूजनाः तं भाहुङ्कर्षयुक्ता कामरागबलान्विता कर्षयन्तः शरीरस्थं भूतग्राममचेतसः माञ्चैवात्मान्तः शरीरस्थं तान् विद्धासुरनिश्चयान् आहारस्तपि सर्वस्य त्रिविधो भवति प्रियः यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु। आयुष्यत्तबलारोग्य सुखप्रीतिविवर्धना रस्या स्निग्धा स्थिरा हृद्या आहारा सात्विकप्रिया कट्टम्लवणतुष्णतीक्ष्णरुक्खविदाहिन आहारा राजसश्रेष्ठा दुःखशोकामयप्रदा जातजामं गतरसं पूतिपर्जूषितं च जत् उच्छिष्टमपि चामेद्धं भोजन तामस प्रियम अफलाकांक्षी भीर्जज्ञो विधिदिष्टो जयिज्यते जष्टव्य मे वेति मनः समाधाय ससात्विकः अभिसन्धाय तु फलं दम्भार्थमपि चैव जत् इज्जते भरतः श्रेष्ठ तं यज्ञं विद्धिराजस विधिहीनम् अशिष्टान्नं मंत्रहीनम् अदक्षिणं श्रद्धा विरहितं यज्ञं तामसं परिचक्षते देवद्विज गुरु विप्राज्ञ पूजनं शौर्यमार्जवं ब्रह्मचर्य महिंसा च शारीरं तप उच्यते अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च जत् श्रद्धाया फसनं चैव वाङ्मयं तपयुच्यते श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरै अफलाकांक्षिन युक्तै सात्विकं परिचक्षते मनः प्रसाद सौम्यत्तं मौनमात्मविनिग्रह भावसंशुद्धिरित्येतत् तपो मानसमुच्यते सत्कारमान पूज्यार्थं तपोतं हेन चैव जत् क्रियते तदिह प्रोक्तं राजसं चलमध्रुवं मूढग्राहीनात्मनो जत् पीडया क्रियते तपः परशोत्सादनार्थं वा तत्तामसमुदारितं दातव्यम् इति यद्दानं दीयते नूपकारिणे देशे काले च पात्रे च तत्तानं सात्विकं स्मृतं जत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः दीयते च परिक्लिष्टं तत्तानं राजसं स्मृतं अदेशकाले यद्दानं अपात्रेभ्यश्च दीयते असत्कृतमवज्ञातं तत्तामसमुदारितम् ॐ तत्सदिति निर्देशो ब्रह्मणास्त्रिविधा स्मृता ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा तस्मादूमित्तुदारित यज्ञदानतपक्रिया प्रवर्तन्ते विधानोक्ता सततं ब्रह्मवादिनां तदितनभिसन्धाय फलं यज्ञतपक्रिया दानक्रियाश्च विविधा क्रियन्ते मुख्य कांक्षी सद्भावे साधुभावे च सदित्ते तत् प्रयुज्यते प्रशस्ते कर्मणि तथा यज्ञे तपसि दाने च स्थिति स्याद् इति चोच्यते कर्म चैव तदर्थीयं सदित्तेवाभिधीयते अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् असदित्तुच्यते पार्थ न च तत् प्रेत्य नो यः इति श्री महाभारते शतसहस्रां संहितायां वैयासिकां भीष्मपर्मणि श्रीमद्भगवद्गीतासुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रय विभाग योगो नाम सप्तदशोऽध्यायः।